यतो यतो निश्चलति जीवभूतान् महाबाहो येनं धारयति जगत् मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय मयि सर्वमिदं प्रोक्तं सूत्रे मणिगणमिव रचोऽहमप्सु कौन्तेयाभास्तस्य सूर्ययोः प्रणतः सर्ववेदेषु शब्दः के पौरुषं दृशो त्रिभिर्गुणमये भावे तेभिः सर्वम् इदम् जगत् मोहितम् नाभिजानाति मामेभ्यः परमव्ययम् दैवीत्येषा गुणमये मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायामेताम् तरन्ति ते न माम् दुष्कृतिमो मूढाः प्रपद्यन्ते नरः धमाः मायापः कृतज्ञाना असुरम् भावमाश्रिताः चतुर्विधा भजन्ते माम् जनाः स्तुतिमर्जुन आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरदक्षभा बहूनाम् जन्मना मन्ते ज्ञानवान् माम् प्रपद्यते वासुदेवः सर्वमिति समहात्मा सुदुर्लभः अन्तवत्कुफलम् तेषाम् तद्भवत्यल्पम् यथसाम् देवान् देव यजो यान्ति मद्भक्ता यान्ति मामपि अव्यक्तम् व्यक्तिमापन्नम् मन्यते माम् अबुद्धयः परम् भावमजानन्तो ममावयममुत्तमम् नाहम् प्रकाशः सर्वत्या योगमाया समाहृतः मूढोऽयम् नाभिजानाति लोको माम् अजवम् ययम् वेदाहम् समपीतानि वर्तमानानि च अर्जुन भविष्याणि च भूतानि माम् तु वेद न कश्चन येषाम् त्वम् तदतम् पापम् जनानाम् पुण्यकर्मणाम् ते त्वद्वमोहनिर्मुक्ता भजन्ते माम् दृढव्रताः अन्तकाले च मामेव स्मरन्मुक्त्वा करेवरम् यत्प्रयाति समद्भावम् याति नास्त्यत्र संशयः यम् यम् वापि स्मरन् भावम् त्यजत्यन्ते करेवरम् तम् तमेवैति कौन्तेया सदा तद्भावभावितः तस्मात् सर्वेषु कालेषु मामनुस्मरयुध्यः मय्यर्पितमनो बुद्धिर्मामेवश्यस्य संशयः अभ्यासयोगयुक्तेन चेतसारान्यगामिना परमम् पुरुषम् दिव्यम् यातिपार्थानचिन्तयन् कविम् पुराणम् अनुशासितारम् अणोरणीयाम् समनुस्मरेद्यः सर्वस्य धातारमचिन्त्य रूपम् आदित्यवर्णम् तमसः परस्तात् अनन्यचेताः सततम् यो माम् स्मरति नित्यशः तस्याहम् सुलभः पार्था नित्येक्तश्च योगिनः मामुपेत्य पुनर्जन्म दुःखायमशाश्वतम् नाप्नुवन्ति महात्मानः संसिद्धिम् परमाकृताः आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन मामुपेत्य तु कौन्तेया पुनर्जन्म न विद्यते अव्यक्तोक्षरमित्युक्तः क्रमाहुः परमाकृतिम् यम् प्राप्य न निवर्तन्ते तद्धाम परमम् मम पुरुषस्य परः पार्था भक्त्याभ्यस्मनञ्जया यस्यान्तःस्थानि भूतानि येन सर्वमिदम् ततम् वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलम् प्रदिष्टम् अत्येति तत्सर्वमिदम् विदित्वा योगी परम् स्थानम् वैति जानतु इदम् तु ते गुह्यतमम् प्रवक्ष्याम्यन सूयते ज्ञानम् विज्ञानसहितम् यज्ञात्वा मोक्षस्य शुभात् राजविद्य ज्ञानाय गुह्यं पवित्रं इदमुत्तमम् प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुव्यम् अश्रद्धधानाः पुरुषाः धर्मस्य च परन्तप अप्राप्यमां निवर्तन्ते मृत्युसंसारवत्मने मया कृतमिदं सर्वं जगदव्यक्तमूर्तिना मत्स्थानि सर्वभूतानि न चाहं तेष्वस्थितः मया अध्यक्षेण प्रकृतिः सूर्यते अस्तरा
तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनः सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः
अधिष्ठानं तथा कर्ता कारणं च पृथक् विधम् विविधानश्च पृथक् चेष्ट दैवं चैव प्रपञ्चमम् प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये बद्धं मोक्षं च या वेत्ति बुद्धिश्च पार्थसात्विकी शमोदमस्तपः शौचम् शान्तिराज्यमेव च ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्मस्वभावज ब्रह्मभूतः प्रसन्नात्मा न शोचति न कङ्क्षति समःसर्वेषु भूतेषु मद्भक्तिं लभते परा भक्त्या मामभिजानाति यावान्यश्च अस्मि तत्त्वतः ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् चेतसा सर्वकर्म